अमृतम् स्तुवन्ति दिव्यैस्तवैः वेदैः साङ्गपदक्रमोपनिषदैः गायन्ति यं सामदा धारावस्थितगतेन मनसा पश्यन्ति यं योगिनो यस्यान्तं न विदुः सुरासुरगणम् देवाय तस्मै नमः देवाय तस्मै नमः देवाय तस्मै नमः।